नमस्ते, आरभामहे। वाक्यकारं प्ररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्। गतपाठे केषाञ्चन सूत्राणाम् अर्थं ज्ञातवन्तः। So we studied atororapradadapute, ashticha, dhalope purvasya dirghonaha, and rori. Annesham sutranam artham adya vadami. Sasa jusho ruhu. Tatra ekam sutram asti. Padasya iti anuvrattam. अतः विशेषण स अत्र अंशद्वयमस्ति, स इत्यस्ति, सजुष इत्यस्ति। विशेषणं चेत् इफ इट इज विशेषण देन तदन्तस्य ग्रहणं भवति, विच वी स्टडीड प्रीवियसली। सो सकारान्तस्य पदस्य, सकारान्तस्य पदस्य and sajushantasya padasya. So and sajush are visheshanas, ataha sakarantasya. Sajush is a word, sajushantasya padasya. Antyasya ruhu bhavati, the last letter of sakaranta pada, the last letter of sajushanta pada will be replaced with ru. Sakarantasya padasya, sajushantasya padasya, antyasya ruhu bhavati. Because always rules are applicable, generally the rules are applicable to last letter. So therefore this antyasya is written here. So antyasya ruhu bhavati. For example, Rama plus Su is a pratyaya. Now Ramas is sakaranta pada. Ramas iti sakarantam padam. Sakarantasya padasya ruhu bhavati. Ruhu itatra only ru ukarasya lopaha bhavati. U ru avashishyate. अतः सकारस्य अन्त्यस्य स्थाने रुः, अतः रामर। इत्येवं रूपं रामस् इति आसीत् बिकम्स् रामर्। सो लैक् दिस् वेर् एवर् देर् इस् सकार इट् विल् बि रिप्लेस्ड् वित् रु रेफ। सर्वेषु शब्देषु तत्र पितुस् पितुः, इतुस् पितुर् इति भवति। रामाः बहुवचनं, रामास् देन् इट् बिकम्स् रामार्। एवं लक्ष्मीः, लक्ष्मीस् देन् इट् बिकम्स् लक्ष्मीर्। एवं सर्वत्रापि सकारान्तस्य पदस्य रुः भवति। Sajush antasya, we can take the sajush word itself directly. Sajush. So sajush atra asya sthane, antyasya sthane repha chet sajur. So ततः परं तत्र सजूः इति दीर्घादिकं भवति, सजूः इति रूपम्। अस्तु, Tadaparam tra sutramasti karavasanayoho visarjaniyaha iti karavasanayoho visarjaniyaha iti agrimam sutram rori iti sutrasya arthaha yaha uktaha tatra sajus shabdasya kaha arthaha iti prashna asti saha jushate iti sajus jusha so priti yuktaha so jusha prito iti dhatu dhatu the meaning of dhatu jush is prito so priti yukte who has priti love for someone is this sadush or who seva who does seva of someone he is also or even tapa who does tapas he also considered as sadush so sahajushate iti sadush so agrimam sutram karavasanayoho visarjaniyaha raha padasya iti padadvayam anuvrittam asti so raha is visheshana and padasya is visheshya therefore the since it is visheshana tadantasya iti arthaha repantasya therefore I wrote repantasya repantasya padasya and karavasanayoho is saptami vibhakti dvivachana karavasanayoho saptami vibhakti dvivachana atah pare ityartha khari pare avasane cha pare saptami vibhakti therefore khari pare kar pratyahara khari pare avasane cha pare repantasya padasya since it is shashti I wrote sthane repantasya padasya antyasya sthane always generally rules are applicable to last letter this all this we studied previously how to understand ashtadhyayi sutras while studying that I told all these rules so repantasya padasya antyasya sthane visarjaniyaha bhavati since it is karavasanayoho saptami karavasanayoho parayoho iti sutrasya arthaha udaharanartham ramar idameva repantam padam the word ends with repha the repantasya padasya antyasya sthane antyah varnah asti repah eva antyasya sthane visargah bhavati visarjaniya means visarga so ramah ramah khari pare avasane cha pare in this example there is avasana avasana varnanam abhavah absence of letters varnanam abhavah asti atah visargah evam khari pare api visargah bhavati khari pare avasane cha pare visargah astu so atah ayam paninih kramah sarvada adau sakarah bhavati generally you will find sakara then sakara gets repa tadah param repasya sthane visargah only in some words in some avyayas and in some places you will find directly repa for example pratar iti avyayam asti repantam avyayam only in some places you will find word ending with repa otherwise generally it starts with sakara then it gets repa then visarga astu tadasparam sutram asti bho bhago akho apurvasya yoshi रोहो पदस्य इति पदयोः अनुवृत्तिः वर्तते. भो भगो अघो. पूर्वस्य इत्यस्ति, अतः भो पूर्वस्य, भगो पूर्वस्य, अघो पूर्वस्य रोहो. भो भगो भगो अघो आर् यूस्ड् इन् संबोधन. भो बालाः, भो बालाः संबोधन दीस् वर्ड्स् आर् यूस्ड्, भो भगो अण्ड् अघो. भो पूर्वस्य रोहो. रु प्रिसैडेड् बै भो भगो आर् अघो. भो पूर्वस्य, भगो पूर्वस्य, अघो पूर्वस्य रोहो. फार् एक्साम्पल् भो, एक्चुलि इट् वास् भो स इन् द बिगिनिङ्ग्, देन् बै ससदृशो रुः इट् बिकेम् भो ऋ. इदानीं भो पूर्वः रुः अस्ति, दिस् इस् रु एण्ड् भो पूर्वः, बिफोर् देट् दे इस् भो. सो भो पूर्वः रुः अस्ति. एवं भगो पूर्वः रुः भगोर्, अघो पूर्वः रुः अघोर्. भो पूर्वस्य, भगो पूर्वस्य, अघो पूर्वस्य रोः. एण्ड् दे इस् वन् मोर् वर्ड् अप्. भो भगो अघो अपूर्वस्य. अपूर्वः यः रुः, अकारः अपूर्वः. अपूर्वः मीन्स् फार् एक्साम्पल् रामर्. रामर् अत्र रोः पूर्वम् अकारः अस्ति, राम अकार. सो अपूर्वः रुः, रोः पूर्वम् अकारः भवेत्. अपूर्वः रुः. सो भो पूर्वस्य, भगो पूर्वस्य, अघो पूर्वस्य रोः. देन् अपूर्वः यः रुः तदन्तस्य. अपूर्व रु इस् दिस् वन्, तदन्त इस् रामर्, एण्डिङ्ग् वित् देट् तद् अन्त, देट् इस् रामर्. अपूर्वस्य, अपूर्वः यः रुः तदन्तस्य च पदस्य, टु सच् वर्ड् पदस्य अन्त्यस्य, द लास्ट् लेटर् आफ् सच् पद विल् बि रिप्लेस्ड् वित् यकार. यः भवति अशि परे, वेन् इट् इस् फालोड् बै, वेन् फालोड् बै अश्, अशि परे. उदाहरणार्थं राम इति, इफ् ऐ टेक् दिस् एक्साम् अत्र लिखामि राम, रामर् इति. नौ दिस् इकार इस् अश्, अशि परे. अपूर्वस्य, अपूर्वः, अपूर्वः यः रुः, देर् इस् रु हियर् रामर् एण्ड् देर् इस् अकार बिफोर् देट्. अपूर्वः, बिफोर् इस् अपूर्वः रुः तदन्त and such word, that is Ramar, the last letter of that word, that is R, it will be replaced with Yakara, then it becomes Ramai. Ramai iti. Okay. Ramai iti. Okay, yeah. Then this yakara gets lopa. There is another rule for that, that there is in next slide. So at the end it becomes Rama iti. Rama iti. This is the Paniniya krama. So it was sakara Ramas, then it gets repa Ramar. Then since there is ash letter, here it is ikara, r will be replaced with y, ramai iti, ततः परम् अशयकारस्य लोपः भवति राम इति. इत्येवं क्रमः. इदं सर्वं सो दिस् रूल् भोभोपूर्वस्य योषि इस् अप्लिकेबल् आन् हियर्. अश् मीन्स् फ्रम् अ टु श् अश् अकारात् अच् इट् इन्क्लूड्स् अच् एण्ड् हश् अश् अतः अत्रापि सो दीस् आर् द प्लेसस् वेर् दट् रूल् अप् इस् अप्लिकेबल् वेर् एवर् रेफलोप इस् दे. So here we studied the rule that is akarepasya sthane ukarah bhavati rora pruta ato rora pruta daprute and here hashita in these two places hashita is applicable and the remaining places here we studied the rule this place rori and thalope purasya dirghona there are two rules related to this. This also we studied. Now we are studying the rules related to this repha lopa. So the first rule is bhobhago apurvasya yoshi. By that rule repha ru roho yakara ru gets yakara, then yakara gets lopa. There are separate rules for ach and hal, so that is in the next slide I will show that. So those rules operate in these places. Okay, yeah. So atra asti sutram lopashakalyasya lopashakalyasya iti sutram. So again I'm writing the same example. Ramar iti then by the previous rule bhobhago akho apurvasya yoshi repasya sthane yakarah ramai iti idanim lopashakalyasya iti sutram pravartate etani padani anuvrittani santi vyoho apurvasya ashi padasya iti. अत्र अर्थः लिखितः अपूर्वस्य अपूर्वः व्योः व्योः मीन्स् यकार वु यु वकारः अण्ड् यकारः देर् आर् टु लेटर्स् व्योः वु अण्ड् यु फोर् अपूर्वः यः यकारः वकारः षष्ठी विभक्ति अपूर्वस्य व्योः बोधारे षष्ठी विभक्ति सो अपूर्वः यः यकारः वकारः तदन्तस्य. In this example, there is yakara, apurva. The previous letter is akara. Ramayu, ramai, akara asti. So, apurvaha yakara. In this example, apurva yakara is there. In some examples, you may get apurva vakara also. Tadantasya, ending with that is ramai. Tadantasya padasya. Antyasya. The last letter of such a word, that is yakara only, antyasya, lopaha bhavati, that yakara, the last letter gets lopa, lopaha bhavati, ashi pare, lopaha bhavati, ashi pare, ikara is ash, ashi pare, shakalyasya matena, oh, there is shakalya, this is not shakalpa, shakalyasya matena. शाकल्यः कश्चन वैयाकरणः ग्रमेरियन् प्रीवियस् टु पाणिनि शाकल्यः इति नाम तस्य मतेन अकार्डिङ्ग् टु शाकल्य शाकल्यस्य मतेन लोपः भवति. सो पाणिनेः मतेन लोपः न भवति. अतः रूपद्वयं देयरफोर टु फार्म्स् आर् पासिबल् एक्चुलि. सो इट् मीन्स् यकारलोप इस् आप्शनल्. शाकल्यस्य मतेन लोपः अन्येषां मतेन लोपः नास्ति. देयरफोर यकारलोप इस् आप्शनल्. अतः राम इति आर् राम इति राम इति ओके इति रूपद्वयं भवति राम इति आर राम इति आई शोड ओनली दिस फॉर्म प्रीवियसली इन द चार्ट बिकॉज यू जनरली फाइंड दिस फॉर्म इन ट्रेडिशनल बुक्स सो दिस फॉर्म इज नॉट यूज जनरली देयरफॉर आई शोड ओनली दिस फॉर्म बट एक्चुअली देयर आर टू फॉर्म्स राम इति आर राम इति ओके सो लोपः शाकल्यस्य शाकल्यस्य मतेन लोपः भवति एंड वन मोर रूल इज देयर हलि सर्वेषां ऑल दीस वर्ड्स भो भको अको अपूर्वस्य पदस्य लोपः आर टेकन फॉरवर्ड सो भो पूर्वस्य भको पूर्वस्य अको पूर्वस्य अखो पूर्व अखो पूर्व ओके शुड बी प्रथम ओके भो पूर्व भगो पूर्व अखो पूर्व यह यकार प्रथम दिन भो पूर्व भगो पूर्व अखो पूर्व यह यकार यह 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 यकार है यकार से डेड बाय भो भगो अखो सो प्रीवियसली आई शोड एग्जांपल भोस 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 बाला संबोधन then sakara gets repa bhor balaha then bho bhago akho apurvasya yoshi sakara gets yakara bhoyu balaha idanim in this level bho purvah yakarah the yakara bho purvah yakarat purvam bho shabdah asti bho purvah भो पूर्व यः यकारः तदन्तस्य द वर्ड विच एंड्स विथ सत्यकार दट इज भोय द लास्ट लेटर ऑफ दट वर्ड दट इज यकार तस्य लोपः भवति हलि परे द वर्ड इज बालाः सो बकार इज हल बिफोर यकार गेट्स लोप बालाः सो भो बालाः भो पूर्वः भगो पूर्वः अखो पूर्वः यः यकारः एंड अपूर्वः यः यकारः द यकार यस् यस्य अस्मात् पूर्वम् अकारः अस्ति फॉर एग्जांपल सेम एग्जांपल वी कैन टेक रामर राम रेस्टेक बालार दीर्घम स्वीकुर्मः बिकॉज अदरवाइज इट्स डिफिकल्ट बालार बाला बहुवचन बालार हसन्ति बालार हसन्ति देन बाय भो भगो अखो अपूर्वस्य योषि The ru will be replaced with yu balay hasanti. Now apurvaha yaha yakaraha. The yakara yakarat purvam akara hasti. Akara includes both harasva dirgha. Even if there is puta, it includes all akaras, all types of akaras. Ataha in this example there is akara. Ataha. यः अपूर्वः यः यकारः यकार तस्मात् पूर्वम् अकारः भवेत् अत्र आकारः अस्ति दट् इस् आल्सो टैप् आफ् अकार ओन्ली अपूर्वः यः यकारः तदन्तस्य पदस्य द वर्ड् विच् एंड्स् विच् सत्यकार दट् इस् बालाय् द लास्ट् लेटर् आफ् दट् वर्ड् दट् इस् यकार इट् गेट्स् लोप हलिपरे वेन् इट् इस् फालोड् बै हल् लेटर् अत्र हकारः अस्ति देयरफॉर यकार गेट्स लोप अतः बाला हसन्ति इति रूपं बाला हसन्ति बाला हसति इति रूपं भवति सो द कंक्लूजन इज हलिपरे व्हेन हल फॉलोस देन लोप इज कंपलसरी सर्वेषां मतेन बट व्हेन अच फॉलोस द लोप इज ऑप्शनल लोप शाकल्यस्य अकॉर्डिंग टू शाकल्य द लोप इज एप्लीकेबल अतः लोप विकल्पेन प्रवर्तते अतः पुनः पूर्वस्मिन् चित्रे So halipare halipare means here lopa is mandatory so it's not optional but in these places lopa is optional atra lopah shakalyasya matena lopah bhavati annesha matena lopah na bhavati अतः लोपः विकल्पेन सो यदि लोपः नास्ति इफ लोप इज नॉट अप्लाइड देन यू विल फाइंड यकार इन ऑल दिस प्लेसेस य य अत्रापि यकारः अवशिष्यते बट हलिपरे द लोप इज कंपलसरी ओके बट सिंस दीस फॉर्म्स आर नॉट वेरी मच यूज्ड यकार सहित रूपं बहु प्रसिद्धं नास्ति अतः मया अत्र यकारः न योजितः किन्तु यकारः अपि भवितुम् अर्हति सो टू फॉर्म्स आर पॉसिबल इन दीस थ्री प्लेसेस ओके सो देयर ऑल द रूल्स रिलेटेड टू दिस चार्ट आई शोड ऑल दोस रूल्स दे आर रिलेटेड टू दिस चार्ट एंड दिस वन मोर चार्ट सो the rules related to this chart I'm going to show the rules yeah atra okay next visarjaniyasya saha khari iti anuvrattam asti visarjaniya means visarga visarjaniyasya shashti visarjaniyasya sthane saha bhavati khari pare so visargasya sthane saha bhavati खरी परे इति सूत्रस्य अर्थः तो अत्र अस्ति विसर्गस्य स्थाने सः भवति दो इट सेस खरी देयर आर अपवादस एक्सेप्शंस आर देयर दीस आर एक्सेप्शंस देयरफॉर सकार इज not applicable in the when these letters are follow visarga atah etesh paresh eva visargah do sutra mentions khari that's applicable only with these letters atah visargasya sthane sah bhavati khari pare sthane sah bhavati khari only these letters here cha ta ta cha tha tha kari pare anyeshu pareshu anyani karyani sanjara exceptions for other letters okay yeah. examples we studied previously so visargasya saha bhavati kari pare then sarpare visarjaniyah विसर्जनीयस्य खरि इति अनुवृत्तमस्ति विसर्जनीयस्य एंड खरि विसर्जनीयस्य स्थाने विसर्जनीयः प्रथमा अत्र अस्ति विसर्जनीयः भवति सर्परे खरि परे खरि सप्तमी सर्परे खरि परे किम् उदाहरणम् ऐ शोड द एग्जांपल प्रीवियसली अत्र जी So this is the idamasti udaharanam. Doshaha kshiyate sarpare kari. See, ksha nama k plus sh ksh kshiyate. So doshaha kshiyate ityasti. Visargasya sthane visargaha eva. Visargasya sthane visargaha eva. So no change is applicable. Visargasya sthane visargaha eva. Sharpare kari pare. This is shar shakara. Shar letter. And kakara is kar. So sharpare kari pare. Sharparaka karvarne pare. Sharparaka karvarne pare. Visargasya visargaha eva. Visarga remains as it is. Visargasya sthane visargaha eva bhavati. Sharpare kari pare. This is the artha. Yam ramaha kshatriyaha ityapi etarashameva udaharanam. Okay, yeah. So sarpare visarjaniyaha. Sarpare kari visarjaniyasya sthane visarjaniyaha bhavati. Sarpare kari pare ksha ityadishu pareshu. Generally you will find example of kshakara. Ksha, kshi, any letter which begins with ksha. Any word which begins with ksha. Ravji.
Yeah, I have a question.
Yeah.
When you are using the pratyahara ash hash, I don't remember there is a I won't roll rook, a wong, I won't, you know, I don't think there is any shakara at the end except sashasar, that is the only shakara there. So, do we take that as the pratyahara from a to sha in the sashasar?
Wait.
No, wait, where is that ash, shankara sha? There is
this one. Asha.
Ash, yes. Ashipare, Hachipare, whatever it is, where is that? That's it. That's what you are showing. I don't think it is the end of any of the 14 Maheshwar Sutras. Am I right?
No. Why? There is a sutra which ends with Shakara. Shakara, this is Talavya Shakara. So the Japagadadash. The 10th sutra ends with the Talavya Shakara.
Yeah. Oh, that is, oh, it's not Shakara, it's Shakara?
Yes, yes, because no, Ashi, I have written Ashi, no?
Okay, okay. I mean, I got confused. I thought it is
okay, okay.
Savarna yeah. Shakara, it's not Savarna Shakara. It is Shankara yeah. Shakara.
Yes, yes, Shankara Shakara only. Yes, yes. So no pratyahara ends with Shakara.
Oh, I see. Not with
you. You don't find any pratyahara with Sa. Yeah.
Oh. Okay, that was the confusion I had. Because I know the 14 sutras, but you know, for some reason in my mind,
correct.
I
thought.
Okay, I'm sorry, thank you.
Okay. So that 9th pratyahara ends with this Murthanya Shakara, and 10th ends with Talavya Shakara.
Yeah.
Correct.
Kapai Tashar. I thought that's not.
Okay. Yeah.
Okay, got it.
Okay. Okay, yeah. Then agrimam sutramasti va shari. Visardaniyasya visardaniyaha. Anuvrattamasti. Visardaniyasya sthane. Visardaniya means visarga. Visardaniyasya sthane. Visardaniyaha va bhavati. Shari pare va. Optionally. Visardaniyasya sthane visardaniyaha va bhavati shari pare when it is followed by shar letter. So yada since it is optional, yada visargaha na bhavati, then visarjaniyasya saha is applicable. When visarga is not applied, then sakara is applicable. So visarjaniyasya sthane visarjaniyaha va bhavati. Shari pare, sharsha sar. Yada visargaha nasti, tada sakaraha bhavati. So you can see now. Shari pare, the sutra says shari pare, ataha atrasti, sha sha sa. So vikalpena. Visargasya sthane visargaha va bhavati. Optionally visarga. Pakshe visargaha, pakshe sakaraha bhavati. Astu, yeah. So va shari, shari pare vikalpaha. Visarjaniyasya sthane visarjaniyaha va bhavati shari pare. And the last one, kuppo kaf paucha. Visarjaniyasya visarjaniyaha ityasti. Visarjaniyasya sthane kaf pau visargaha cha bhavanti kuppoho parayoho. So pakshe pakshe kafpau pakshe visargaha. Again, this option I mentioned previously also, this is optional. So either kafpau ka means jihvamuliya or upadhvaniya, either jihvamuliya if it is followed by kakara or khakara, then jihvamuliya if it is followed by pakara or phakara, then upadhvaniya. And this is optional. Again, pakshe visargaha. Kafpau or visarga. Bhavati, bhavanti, kuppoho parayoho. Ku means kavarga, but though it is, sutra says kavarga, only it's applicable with ka and kha. And pu again it's pavarga, but the rule is applicable only with pa and pa. There are again exceptions. So this I showed in the previous chart. Here I have given that. So this is jihva muliya or visarga, upadhmaniya or visarga. So kakare khakare tapare, either jihva muliya or visarga, pakare phakare tapare, upadhmaniya athava visarga. Okay, yeah. Then actually there are many exceptions to this kuppo kafpauja. Because previously also someone asked how this namaskaroti etc. are possible. Those are exceptions. Namaskaroti. Though there is karoti, so you won't find visarga or jihvamuliya, but there is sakara only. That's because of apavada. Tatra bahava apavada santi. So those exceptions you will get immediately after this sutra. So it's 8337. Immediately after this sutra, you will find exceptions also. There are many exceptions. You can also read those exceptions in Siddhanta Kaumudi, or directly you can read in Ashtadhyayi. If you have any commentary on Ashtadhyayi, then you can read those exceptions. Okay, so I covered, explained most of the sutras which are related to this Visarga Sandhi chapter. Most of the rules you will find in Ashtamadhyaya Tritiya Pada. See, all these are in Ashtamadhyaya Tritiya Pada. Sarve Adhikyena Ete Etani Sutrani Ashtamadhyayasya Tritiya Pada Santi. So you can also read Ashtadhyaya itself directly. So in the beginning you will find Rutva, rules which are related to Rutva. The Tritiya Pada begins with rules related to Rutva. First rule is Matuvasoru Sambuddhau Chandasi, like that. Then there are this Karavasaniyo Visarjaniyaha Pobhobho Purvas Yoshi, which we studied. Those rules are also there. Then this Kuppoh Kafpaucha, these rules and their exceptions are given. And after that, there are many rules related to Shatva in this Adhyapada. For example, we know Rameshu. Actually, it was Ramesu, the beginning. There was Sakara. Then Sa will be replaced with Sha. Becomes Rameshu. This is called Shatva. There are many rules related to Shatva. So most all those rules are given in Ashtamadhyaya Tritiya Pada only. So from 55, Ashtamadhyaya Tritiya Pada, from 55 onwards till the end of the Pada, it is 119. Sarve Sarvani Sutrani Shatva Sambadhani Santi. All these rules are related to Shatva. There are many rules. So how Shatva is applicable in Suvantas, how it's applicable in Tingantas, there are exceptions. So therefore you will find many rules. Okay, so therefore you can read this, excluding this part, you can read other sutras of Ashtamadhyaya Tritiya Pada. Parvatanathanji.
Namaste Mahodaya. कुप्पोः कप्पौ च तत्सूत्रानन्तरं भवता उक्तं नमस्करोति तिरस्करोति ईदृश समयेषु एक्सेप्शन् विकल्पेन इति भवान् उक्तवान् ताः ते सन्ति इति परन्तु कवर्गं पवर्गं पवर्गं कवर्गं तत्र एव उपद्मानीयं जिह्वामुलेयं आगच्छति कुप्पोः कप्पौ च सूत्रविषये परन्तु नमस्करोति तत्र क मा एव अस्ति नमस्करोति मा अपि पवर्ग तत्कारणात् एव
न न न नमस् प्लस् करोति सो अग्रे ककारः अस्ति
अग्रे
नमस् प्लस् करोति सो किं भवेत् एक्चुलि किं किं भवेत् वस्तुतः सकारस्य स्थाने रेफः भवेत् रेफस्य स्थाने तत्र विसर्गः अथवा आर् जिह्वामूलीयः नमः करोति इति भवेत् किन्तु न भवति अत्र नमः करोति इति न भवति नमस्करोति इति रूपं भवति
तदर्थं किमर्थम् इत्थमिति विवर्ण्यते अन्यत्र
अग्रे एव अस्ति सो कुप्पोः कप्पौ च सूत्रस्य सूत्रात् परमेव एतानि सूत्राणि सन्ति तानि सूत्राणि कुप्पोः कप्पौ च सूत्रस्य अपवादसूत्राणि कुत्र कुप्पोः कप्पौ च इति सूत्रं न प्रवर्तते इति उक्तमस्ति तत्र बहूनि सूत्राणि सन्ति एवं
धन्यवादः धन्यवादः
अस्तु सम्यक् राजारामजि 8340 इति नमस्पुरसोर्गत्योः इति सूत्रमस्ति एवं तत्र बहूनि सूत्राणि सन्ति भवन्तः पुनः तद् द्रष्टुं शक्नुवन्ति नाम कथम् अध्येतव्यमिति यदि ज्ञायते स्वतः अपि अध्ययनं कर्तुं शक्यते अतः सर्वाणि सूत्राणि मया न उक्तानि किन्तु सिद्धान्तकौमुद्यामपि एतानि सूत्राणि दृश्यन्ते इदं सिद्धान्तकौमुद्यं यदि पश्यन्ति अत्र विसर्गसन्धिप्रकरणं स्वादिसन्धिप्रकरणम् इति प्रकरणद्वयमस्ति दर् आर् टु चाप्टर्स् विसर्गसन्धि प्रकरण एण्ड् स्वाधिसन्धि प्रकरण स्वपस्थे तत्सन्धि देन् द प्रकृतिभाव प्रकृतिभावसन्धेः परं हलसन्धिः अस्ति सिद्धान्तकौमुद्यां हलसन्धिप्रकरणं हलसन्धिप्रकरणात् परं विसर्गसन्धिप्रकरणमस्ति विसर्गसन्धिप्रकरणे कुप्पोः कप्पौ च इति सूत्रं लिखितमस्ति इदं सूत्रं कुप्पोः कप्पौ च इति सूत्रं सिद्धान्तकौमुद्यां विसर्गसन्धिप्रकरणे अस्ति ततः परम् एतस्य सूत्रस्य अपवादसूत्राणि सर्वाणि अपि लिखितानि सन्ति तेषाम् अर्थः उदाहरणं सर्वं विसर्गसन्धिप्रकरणे सिद्धान्तकौमुद्यां लिखितानि सन्ति सम्पूर्ण विसर्गसन्धिप्रकरणे तत्र एते अपवादाः दृश्यन्ते ततः परं स्वादिसन्धिप्रकरणमस्ति अन्यानि सूत्राणि यानि अस्माभिः पठितानि अतोरोरप्रदादप्रते हसि च इत्यादीनि तानि रोः स्थाने यानि कार्याणि विधीयन्ते तत्सम्बद्धानि सूत्राणि सर्वाण्यपि सिद्धान्तकौमुद्यां स्वादिसन्ति प्रकरणे सन्ति. एवञ्च तेन क्रमेण भवन्तः तत्र प्रकरणं पठितुं शक्नुवन्ति अथवा अष्टाध्यायामेव साक्षात् द्रष्टुं शक्नुवन्ति. कृष्णन्जी.
Hi, good evening. I have a general question. I have conversations with my friends in the area once in a while, and they always ask me, particularly Westerners, they ask me, how is this Ashtadhyayi laid out, and what is this Tripadi section and Sapada Saptadhyayi? So they understand the Sapadi. But going towards the Tripadi, I try to explain to them, after you go through all the machinations from chapter 1 through chapter 7, first pada, the remaining three padas are generally the final cleanup to arrive at the final padas. So is that how it works? The tripadi is the final cleanup. Beyond that, you cannot do anything else, right?
Correct. Yes, okay. Yes. So you will find such rules only. For example, Sandhi rules, this... rules related to consonants or shatva rules or sometimes Ramena, this natva. Ramena becomes Ramena. There are many rules related to natva. So such rules only you will find in Tripadi.
And that's why you cannot go back, because you've already gone through the initial machinations, and beyond that you want to go and finish up the final touch-up. The painting.
Correct. Yes. Yeah. Okay. Only such rules are there. Yeah. Correct.
So I haven't misled them, I hope.
Yes. Correct. Yeah. So all other rules you will find in Anga Adhikara. This is Adhikara called Angasya. It begins in Shashtadhyaya 641.
Mm-hmm.
So, 64. So from 641 to the complete 7th adhyaya. This is called Angasikara. So, 5 padas. 6, 4, 1, 2, complete. So, 5 padas. All these rules are related with how to add this Prakriti and Pratyaya.
Right.
Prakriti can be Dhatu or Pratipadika, anything. Prakriti.
Yeah. Just to take one more minute. You know, the two volumes of Panini's, volume 1 and 2, each containing 4 chapters, anybody, even the smartest guy who starts reading it from cover to cover, it's impossible to figure out what in the heck is in there. So it would have been very nice to have an introduction in the first volume and also in the second volume to say how it is laid out. I mean, nobody does it except your 2-volume book that I read through. And I spent probably 6 months trying to figure out, and I said to myself, I'm a smart guy, I should be able to figure this out. But I spent 6 months trying to bust my head. I couldn't do it.
Okay. Correct. Yes. Well, this is very important. No, if you know how it is laid out, then you can easily read that Astadhyayi. Otherwise, it's very difficult to where to start or where to find out the sutra. It's very difficult. If you don't structure, then you can easily search in the Astadhyayi.
Well, I mean, there's some of the Westerners, they think they can do it themselves. And the fact of the matter is, I went to one of their Tingandapratya thing, and my God, it was just a mess. They had no clue what they were doing. In any case, I respect their at least trying.
Correct.
But it would be nice to have a very good introduction of no more than 10 or 15 pages to say... how it is laid out, what is the fundamental principle. This is just like the, the general equation that people need to put together. That's what he has done, and he has done a pretty good job at it.
Okay.
That's my comment. Thank you.
Okay, dhanyavad. Yeah. Venkateshwaranji? Just a minute.
Namaste.
Namaste.
There is a श्लोकम् निन्न महान्यासम् अघोरेभ्यो अतघोरेभ्यो घोरघोरतरेभ्यः सर्वेभ्यो सर्वेभ्यो नमस्ते अस्तु रुद्ररूपेभ्यः. इति सम्बोधन शिवा इति
नाट् सम्बोधन अघोरेभ्यः अघोरेभ्यो तघोरेभ्यो घोरगोदरेभ्यः सर्वे नमः 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 ते रुद्ररूपेभ्यः देर् इस् नमः चतुर्थी भक्ति बहुवचन सो वेन् एवर् देर् इस् नमः सो चतुर्थी भक्ति इस् यूस्ड् नमः सो देर्फोर् नमस्ते नमः ते ओके षडगोपालञ्जि जस्ट् ऐ एम् ट्रैङ्ग् टु अन्म्यूट्
Tripathi is just the end of the show. They may misunderstand. Tripathi Sutra can be used anytime during the process. If it is applicable, you can use that. If it is not applicable, it is not coming at the end. You can use it right here. Supposing you are making a pada. Where the Tripathi should be applicable, you can use it. It's not the end of the show. So, children may misunderstand what we are saying. We may know what we are telling. I just thought.
No, because, no, at end of the show means after applying the Sapta Saptadhyaya rules, we apply the Tripathi rules. So, the most of the rules which are related to derivation of pada are completed, are applied. Therefore, after the applying Tripathi, we are not applying any other rules because, so actually, any the words are derived from Dhatu. The pratyayas
yes. Particular purpose, but yeah, pada will have 5-6 aspects. You would still be required for so many other things. See, in this sandhi, you may not do.
But
there are so many things concerning this and that. You know, I don't know. Maybe I'm not happy to.
Padas, they are derived from dhatu. Thank you. So all other rules. From dhatu to up to pada, so there are many rules. To get pada like Rama, we applied many rules. So after applying all those rules which are in Sapasattadhyayi, then only we can apply Tripathi rules. So because we can't do the reverse order. So they are applied at the end. Therefore, he mentioned that it is the end of the show. It's okay. Okay, there are two more rules. Questions, I think. How to figure out when to apply Samdhi or not? Rama, Raja, Ramaha. Okay. See, applying Samdhi rules always depends on intention of the speaker. So, Vivaksha, Sam Vivaksham Apekshate. Only in, if it is Samasa, then it is compulsory. You have to apply Sandhi rule. If it is not Samasa, just it is a sentence, like Rama, Tatra Iti, Tatra Eti, Tatra Eti. If it is just a sentence, then applying a Sandhi rule it depends on the speaker. Ataha Yadi Vaktuhu विवक्षा अस्ति तर्हि सन्धिः भवति यदि विवक्षा नास्ति तर्हि सन्धिः न भवति अतः एव इदानीन्तनपुस्तकेषु इफ् यु रीड् द बुक्स् आफ् संस्कृतभारती यु वोण्ट् फैण्ड् एनी सन्धीस् इन् देर् बुक्स् किमर्थं दे थिङ्क् इट् विल् बि वेरि डिफिकल्ट् इफ् यु अप्लै सन्धि देफोर् दे डोण्ट् अप्लैस् एनी सन्धि रूल्स् सो इट्स् विवक्षा बट् इन् इफ् यु रीड् भाष्य आफ् शङ्करभाष्य आर् एनी अदर् कामेण्ट्रीस् दे अप्लै आल् सन्धि रूल्स् Their vivaksha was different. They thought these rules should be applied. So it depends on vivaksha. Yes, I think slide 22 of your fourth class shows a bird's eye view of the Astadhyayi arrangement. Yes, correct. Okay. Vivaksha. Vivaksha vaktum iccha. Desire to say. That is vivaksha. So if the speaker is desirous of doing sandhi, then the rules are applicable. Vaktum Icha Vivaksha. Okay. Astu Tarihi Samapayamaha. So thus we studied this sandhi, some of the famous sandhi rules. I don't say all sandhi rules, but some famous sandhi rules we studied. Study Achandhi and Hal Sandhi and Visarg Sandhi, and I also showed the direction how to understand these Sandhi rules. Remaining sutras you can study on your own. So next class will be after Deepavali, so at the last week of this month. So you will get notification last week. Again, weekly once I will take. So Wednesday, last week Wednesday, I don't remember the date. Yeah, so we will study Subantas in that class. We will start Subantas. Okay. Astu tarihi pudar milamaha sarvebhyah deepavalyah shubhashayah. Astu. Yeah.